एषा रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। एनपीएल इति नेपाल प्रीमियर लीग नाम्न्या क्रिकेट प्रतियोगितायाः द्वितीय संस्करणस्य उपाधि लुम्बिनी लायन्स समूहेन प्राप्तोस्ति। ह्य सम्भूतायाम् अन्तिम क्रीडायाम् सुदूरपश्चिम रोयल्स समूहम् षण्णाम् क्रीडकाणाम् अन्तरेण पराजित्य लुम्बिनी लायन्स समूहेन उपाधिरयम् विजितोस्ति। सुदूरपश्चिम रोयल्स समूहेन प्रदत्तम् षडशीतेः धावनाङ्कानाम् लक्ष्यम् लुम्बिनी लायन्स समूहेन नवसु ओवराङ्केषु सहजतया प्राप्तमासीत्। अस्मिन् द्वितीय संस्करणेऽपि सुदूरपश्चिम रोयल्स समूह उपविजेत्री क्रीडा समूहे एव सीमितीभूतो वर्तते। उपाधि विजेत्रा लुम्बिनी लायन्स समूहेन दशलक्ष्याधिकैक कोटि रूप्यकाणि प्राप्तानि सन्ति। उपविजेत्रा समूहेन एकपञ्चाशल्लक्ष्याणि रूप्यकाणि प्राप्तानि सन्ति। उत्कृष्ट क्रीडकत्वेन लुम्बिनी लायन्स समूहस्य समूह नेत्रा रोहित पौडेलेन एकं कारयानं च प्राप्तं वर्तते। अत्रान्तरे राष्ट्रपतिना रामचन्द्र पौडेलेन एनपीएल इति क्रिकेट क्रीडा प्रतियोगितायाः द्वितीय संस्करणस्य उपाधि विजेत्रे लुम्बिनी लायन्स समूहाय वर्धापनानि प्रदत्तानि सन्ति। राष्ट्रपतिः पौडेलः फेसबुक इति सामाजिक सञ्जालस्य माध्यमेन विजेत्रा समूहेन सहैव सर्वेभ्य क्रीडकेभ्यः वर्धापनं व्यक्तवान् अस्ति। एवमेव प्रधानमन्त्रिणा सुशीला कार्की इत्यनया च एनपीएल इति क्रिकेट क्रीडा प्रतियोगितायाः विजेत्रा समूहेन सहैव सर्वेभ्यः क्रीडकेभ्यः व्यवस्थापकेभ्यः समर्थकेभ्यश्च वर्धापनानि प्रदत्तानि वर्तन्ते। नेकपा एमाले दलस्य अध्यक्षः केपी शर्मा ओली भाषते देशम् अनुचित मार्गे गमनात् रोद्धुम् एमाले दलम् प्रतिबद्धमस्ति। भक्तपुरस्य सल्लाघारी स्थाने दलस्य एकादशतमस्य महाधिवेशनस्योद्घाटनसत्रम् सम्बोधयन् अध्यक्षः ओली विघटितायाः प्रतिनिधिसभायाः पुनस्थापनायाः विषये स्वदलं स्थिरं सदपि निर्वाचनस्य कृतेऽपि तत्परमस्ति इति प्रावोचत्। अध्यक्षः ओली यद्यपि सर्वाणि दलानि निर्वाचनस्य कृते तत्पराणि वर्तन्ते तथापि सर्वकारस्य गतिविधयः निर्वाचनं प्रति लक्षिताः न सन्ति इति टिप्पणीम् अकरोत्। एमाले दलस्य अध्यक्षः ओली गत भाद्रमासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः सम्भूते आन्दोलने अन्येषां प्रवेशस्य कारणात् देशस्य संरचनासु दुर्बलीभूतास्वपि शान्तिपूर्णेन न्यायपूर्णेन च मार्गेण लोकतन्त्रं लये प्रत्यावर्तनीयम् इति अभाषत। नेकपा एमाले दलस्य महाधिवेशनं सम्बोधयन् नेपाली कांग्रेस दलस्य कार्यवाहक सभापतिः पूर्णबहादुर खड्का राजनीतिक दलेषु दुर्बलेषु विभक्तेषु च सत्सु लोकतन्त्रे संकटः सम्भविष्यतीत्यतः देशं समुचित मार्गेण अग्रे नेतुं सर्वैः दलैः एकीभूय कार्यं करणीयम् इति प्रावोचत्। उद्घाटन समारोहे नेकपा एमाले दलस्य महासचिव शंकर पोखरेल, नेपाली कम्युनिष्ट दलस्य देव गुरूङ, नेकपा दलस्य महासचिव नेत्र विक्रम चन्द विप्लव, रासोपा दलस्य महामन्त्री कविन्द्र बुर्ला कोटी च स्वकीयां धारणां व्यक्तवन्तः। तत्पूर्व महाधिवेशने सहभागितायै देशस्य विभिन्नेभ्य भागेभ्य आगता दलस्य प्रतिनिधय नेतार कार्यकर्तारश्च भक्तपुरस्य गठाघर स्थानात् जगाती स्थानात् च शोभायात्रया सह सल्लाघारी वर्तिनी महाधिवेशनस्थले सम्प्राप्ता आसन्। समारोहे नेपालस्य विविधताया एकतायाश्च दर्शका विभिन्न कार्यक्रमा प्रस्तुता आसन्। एमाले दलस्य अन्तरसत्रम् अद्यत प्रारभते। महाधिवेशनं स्वस्तनं दिवसं यावत् चलिष्यति। भौतिक पूर्वाधार यातायात मन्त्री कुलमान घिसिङ एकमासाभ्यन्तरे कार्य अप्रारब्धे सति तनह जनपदस्य घुमाउने स्थानस्य सेतोः निर्माणस्य अनुबन्धन संविधान निरस्तीकरिष्यते इति प्रत्यादेशति। तनह जनपदस्य आबु खैरेनी ग्रामपालिकायाः पञ्चम ओडा क्षेत्रस्य अथ च चितवन जनपदस्य भरतपुर महानगरपालिकायाः ऊनत्रिंशद् ओडा क्षेत्रस्य योजकस्य सेतुः ह्य निरीक्षणं विदधानो मन्त्री घिसिङ मासाभ्यन्तरे कार्यं प्रारब्धुं निर्माण व्यवसायिनो निरदिशत्। मन्त्री घिसिङ दीर्घकालात् असहायावस्थायां स्थितस्य सेतुः विषये राष्ट्रियस्तरे चर्चा जायमाना वर्तते इति भाषमाणः कार्यं न विधीयते तर्हि निर्माणानुबन्धनस्य भञ्जनस्य विकल्पो न भविष्यति इति प्रत्यपादयत्। ऊर्जा जलस्रोत सेचन मन्त्री कुलमान घिसिङ राजनैतिक दलैः नेपाली जनतायाः आकांक्षायाः अनुसारेण कार्यं विहितं सत् देशः शीघ्रमेव समृद्धो भविष्यति इति विचारं व्यनक्ति। उज्यालो नेपाल इति दलस्य गण्डकी प्रदेश स्तरीय मेलाम ह्य पोखरायाम सम्बोधयन् मन्त्री घिसिङ राजनीतिक दलै विभिन्नेष् समयेष् देशे परिवर्तनानि आनीतानि सन्त्यपि जनमुखी शासकीय सामर्थ्यस्य अप्रदर्शनस्य कारणेन जनतायाम विद्रोह प्रारब्धोऽस्तीति अगदत्। शिक्षा विज्ञान प्रविधि मन्त्री महावीर पुन देशस्य विश्वविद्यालयानां सुधाराय राजनीतिकम् हस्तक्षेपम् समाप्य राजनीत्या असम्बद्धस्य योग्यस्य जनस्य नेतृत्वे आनयनस्य आवश्यकतां दर्शयति। ह्य काष्ठमण्डपे आयोजिते नेपालीनाम् उच्चशिक्षायाः कृते नीतिगत संरचना इति विषयके कार्यक्रमे शिक्षा मन्त्री पुन विश्वविद्यालयान् ज्ञानस्य अनुसन्धानस्य नवप्रवर्तनस्य च केन्द्रत्वेन विकसयितुं राजनीतिकावण्टनम् बाधकमस्तीति प्रावोचत्।